आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। ह्यः लोकसभायाम् ऐषमः वित्त विधेयकस्य चर्चायां वित्तमन्त्री निर्मला सीतारामनः स्थापित प्रश्नस्य उत्तरं यच्छन्ती उक्तवती यत् विगत दशवर्षेषु प्रशासनेन पारदर्शक रूपेण कराधान परिवर्तनानि कृतानि। ह्यः लोकसभायां 24-2000 वित्त विधेयकः पारितः। सहैव प्रशासनस्य वित्तीय प्रस्तावाः प्रभाविणः अभवन्। आयव्यय पत्रक प्रक्रिया च सम्पन्ना। लोकसभायां विधेयक विषये चर्चायाः उत्तरं दत्त्वा वित्तमन्त्री निर्मला सीतारामनः अवोचत् यत् मोदी प्रशासनस्य उद्देश्यं करसंरचनायाः सरलीकरणेन देशे विकासः भविष्यति, वृत्त्यवसराः अपि भविष्यन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः गवर्नर जनरल डेम सिंडी किरो इत्यस्याः निमन्त्रण पुरस्सरं गतदिने अपराहणे द्विदिवसीय यात्रार्थं न्यूजीलैंड देशस्य ऑकलैंड नगरम् आगतवती। सा गवर्नर जनरल डेम सिंडी किरो इत्यनया सह प्रधानमन्त्रिणा क्रिस्टोफर लेक्सिन इत्यनेन सह द्विपक्षीय समागमम् अकरोत्। राष्ट्रपति वेलिंगटन नगरे अन्ताराष्ट्रिय शिक्षा सम्मेलनम् अपि सम्बोधयिष्यति, यत्र भारतं विशिष्टातिथि रूपेण वर्तते। सा ऑकलैंड नगरे सामुदायिक स्वागत समारोहे भारतीय प्रवासी भारत मित्रैः सह अपि संवादं करिष्यति। एषा यात्रा बहूनां क्षेत्रेषु वर्धमान सम्बन्धानां कृते अधिकं गतिं दास्यति इत्यपेक्षा वर्तते। निर्वाचनायोगेन नवराज्यानां 12 रिक्त राज्यसभासनानां निर्वाचन कार्यक्रमस्य घोषणा विहिता। अधिसूचना च अगस्तमासस्य 14 दिनांके प्रकाशिता भविष्यति। प्रत्याशिनः अगस्तमासस्य 21 दिनांकं यावत् नामांकनं कर्तुम् अर्हन्ति। नामांकनपत्राणां परीक्षणं अगस्तमासस्य 22 भविष्यति। अवधेयं यत् निर्वाचनं सितम्बरमासस्य 3 दिनांके भविष्यति। निर्वाचनायोगः सोम मंगलवासरयोः आगामि विधानसभा निर्वाचनस्य सज्जतायाः समीक्षां विधास्यति। हरियाणा राज्यस्य मुख्य निर्वाचनाधिकारिण पंकज अग्रवालेन समुदीरितं यत् भारत इलेक्ट्रॉनिक्स लिमिटेड इत्यस्य अभियन्तारः राज्यस्य सर्वेष्वपि 22 जनपदेषु ईवीएम इत्यस्य प्रथमस्तरीय निरीक्षणं कुर्वन्ति। क्रीडा मंत्री मनसुख मांडविया अवदत् यत् भारतीय ओलंपिक संघः विश्व मल्ल युद्ध संघस्य समक्षं पेरिस ओलंपिक क्रीडायां मल्लयुद्धे विनेश फोगाट इत्यस्याः अयोग्यतायाः विरुद्धं विरोध प्रत्यावेदनम् अकरोत्। डॉ मांडविया ह्यः लोकसभायाम् अवदत् यत् केन्द्रं विनेश इत्यस्यै सर्वं साहाय्यं प्रददाति इति। सः उक्तवान् यत् अस्मिन् विषये प्रधानमन्त्रिणा नरेन्द्रमोदिना भारतीय ओलंपिक संघस्य अध्यक्षया पीटी उषा इत्यनया सह वार्तालापः कृतः। डॉ मांडविया अवदत् यत् अस्मिन् विषये सर्वाः सम्भावनाः अन्वेष्टुं भारतीय ओलंपिक संघः आदिष्टः अस्ति। क्रीडामन्त्री अवदत् यत् विनेश फोगाट इत्येषा 50 किलोग्राम भारवर्गे क्रीडति स्म। तस्याः भारः विहित सीमायाः अपेक्षया 100 ग्राम मितः अधिकः जातः। ह्यः पेरिस ओलंपिक क्रीडायां महिला मल्लयुद्धस्य अन्तिम क्रीडायाः कृते अयोग्यतां प्राप्तायाः विनेश फोगाट इत्यस्याः कृते प्रधानमन्त्री नरेन्द्रमोदी सान्त्वनाम् अयच्छत्। सामाजिक संजालीय सन्देशे प्रधानमन्त्री मोदी उक्तवान् यत् एषा दुःखदायिका वार्ता हृदय विद्राविका वर्तते। सः अवदत् यत् मल्लयुद्धे फोगाट तादृशी एका विजेत्री अस्ति या भारतस्य गौरवः अथ प्रत्येकस्य भारतीयस्य कृते प्रेरणादायिका अपि वर्तते इति वार्ताः।